अथ त्रयोदशः पाठः। हनुमतो वचांसि श्रुत्वा रामो महाकोपं गतो रावणं हन्तुकामोऽभवत्। तेन च वानरसेनया सह लंकां जेतुं प्रस्थितम्। स तु वीरः समुद्रतीरे अचिन्तयत्। असौ लंका जलमध्ये स्थिता, सा च हनुमतोत्पतता प्राप्ता। तत्कथमहममुस्मिन् द्वीपे गमिष्यामीति। ततो गिरयो रामेण वानरैश्चोन्मूलयिता जलेषु क्षिप्ताः। एवं तैरुदधिं तितिर्षुभिर्महान् सेतुः कृतः।